ब्रह्मध्यान परैर्योग परैर्ब्रह्मासनस्थितैः योग निद्रागतैर्योग पट्टबन्धैरुपाश्रिताम्।
ब्रह्मेति ब्रह्मासने स्थितैः तथा ब्रह्मणः ध्याने परैः सक्तैः तथा योग एव निद्रा ताम् गतैः तथा योगपट्टस्य बन्धः बन्धनम् येषाम् तैः योगपट्टम् बध्नद्भिरित्यर्थः। एवंविधैः योगपरैः योगिभिः उपाश्रिताम् सेविताम् उभौ जानू ऊर्ध्वतमौ सकट्युपसुवाससा बद्धौ च कृत्वा सततम् ध्यायेत् परमनन्यधीः इति योगलक्षणम्।
पादाङ्गुष्ठाग्रभूमिस्थैः सूर्यसम्बद्धदृष्टिभिः ब्रह्मर्षिभिः परम् ब्रह्म गृणद्भिरुपसेविताम्।
पादेति पादसम्बन्धिनः अङ्गुष्ठस्य अग्रेणैव न समग्रपादेनेत्यर्थः। भूमिस्थैः पृथिव्याम् स्थितैः इत्यर्थः। तथा सूर्ये सम्बद्धदृष्टिभिः अन्वितविलोचनैः तथा परम् ब्रह्म गृणद्भिः जपद्भिः ब्रह्मर्षिभिः सप्तर्षिभिः उपसेविताम् उपाश्रिताम्।
अथ दिव्याम् नदीम् देवीम् अभ्यनन्दन् विलोक्यताः कम् नाभिनन्दयत्येषा दृष्टा पीयूषवाहिनी।
अथेति अथ अनन्तरम् ताः कृत्तिकाः दिव्याम् स्वर्गीयाम् नदीम् देवीम् गङ्गाम् विलोक्य अभ्यनन्दन् आनन्दिता बभूवुः इत्यर्थः। एतद्युक्तमेवेत्याह एषा पीयूषवाहिनी गङ्गा दृष्टा दर्शनगोचरीभूता सती कम् पुरुषम् नाभिनन्दयति अपि तु सर्वमेवेत्यर्थः। किम् इति पाठे किम् कुतः कारणात् नाभिनन्दयति मोदयति अपि तु मोदयत्येवेत्यर्थः। अतः एतदालोकने आनन्दो युक्त इति भावः।
चन्द्रचूडामणिर्देवः यामुद्वहति मूर्धनी यस्या विलोकनम् पुण्यम् श्रद्दधुस्तामुदाहृदि।
चन्द्रेति चन्द्रः चूडामणिभूतः यस्य सः देवः हरः मूर्धनि याम् उद्वहति यस्याः विलोकनम् पुण्यम् पुण्यकारि ताम् गङ्गाम् हृदि मनसि मुदा प्रीत्या श्रद्दधुः श्रद्धिताम् चक्रुरित्यर्थः। गुणवत्सु श्रद्धायाः औचित्यादिति भावः।
दिव्याम् विष्णुपदीम् देवीम् निर्वाणपददेशिनीम् निर्धूतकल्मषाम् मूर्ध्ना सुप्रह्वास्ताववन्दिरे।
दिव्यामिति निर्वाणपदस्य मोक्षपदस्य देशिनीम् दात्रीम् तथा निर्धूतकल्मषाम् दूरीकृतजनकिल्विषाम् दिव्याम् स्वर्गीयाम् द्युप्रागपागुदक्प्रतीचो यत् इति दिवः यत् विष्णोः पदीम् चरणसम्बन्धिनीम् गङ्गा विष्णुपदी इत्यमरः। देवीं गंगां ताः कृत्तिकाः सुतरां प्रह्वाः नताः सत्यः मूर्ध्ना ववन्दिरे प्रणेमुः
सौभाग्यैः खलु सुप्रापाम् मोक्षप्रतिभुवं सतीं भक्त्यात्र तुष्टुवुस्तां ताः श्रद्दधानादिवोधुनीम्
सौभाग्यैरिति अत्र ताः कृत्तिकाः श्रद्दधानाः सत्यः सौभाग्यैः शोभनभाग्यैः सुखेन प्राप्तुं शक्यां मोक्षस्य प्रतिभुवं लग्नकां सतीं पतिव्रतां तां दिवोधुनीं गंगां भक्त्या निमित्तेन तुष्टुवुः भक्तिनिमित्तं स्तवनमित्यर्थः
मुक्तिस्त्री संगदूत्यज्ञैः तत्रता विमलैर्जलैः प्रक्षालितमलाः सस्नुः सुस्नातास्तपसान्विताः
मुक्तिरिति ताः कृत्तिकाः विमलैः विगतमलैः तथा मुक्तिः मोक्षः सैव स्त्री तस्याः सङ्गः सम्बन्धः प्राप्तिरिति यावत् तत्र यद्दूत्यं दूतीभावः कर्म वा तस्य ज्ञैः ज्ञातृभिरित्यर्थः येषां स्पर्शमात्रेण मुक्तिर्भवतीति भावः तथाभूतैः जलैः कृत्वा प्रक्षालितमलाः निवर्तितकल्मषाः सत्यः तत्र गंगायां सस्नुः स्नानं चक्रुरित्यर्थः मलापकर्षस्नानानन्तरं शुद्धस्नानं क्रियते इति भावः किम्भूताः सुस्नाताः शोभनं विद्युक्तप्रकारकं स्नातं स्नानं यासान्ताः भावे निष्ठा विद्युक्तप्रकारेण स्नानकर्त्र्यः इत्यर्थः पुनः किम्भूताः तपसान्विताः तपस्विन्य इत्यर्थः ष्णा शौचे कर्तरि लिट्
स्नात्वा तत्र सुलभ्यायाम् भाग्यैः परिपचेलिमैः चरितार्थं स्वमात्मानम् बहुता मेनिरे मुदा
स्नात्वेति परिपचेलिमैः परिपक्वैः तव्यत्तव्यानीयरः इत्यत्र केलिमर उपसंख्यानात् पचतेः केलिमर् भाग्यैः दिष्टैः निमित्तभूतैः सुलभ्यायां सुखेन लब्धुं शक्यायाम् पोरदुपधात् इति यत् तथाभूतायां तत्र गंगायां स्नात्वा ताः कृत्तिकाः स्वं स्वकीयं आत्मानं मुदा प्रीत्या बहु यथा तथा चरितार्थं पुरुषार्थकारिणं मेनिरे अमन्यन्त मनु अवबोधने कर्तरि लिट्
कृशानुरेतसोरेतः तासामभिकलेवरम् अमोघम् सञ्चचाराथ सद्यो गङ्गावगाहनात्
कृशानुरेतस इति अथ अनन्तरम् गङ्गावगाहनाद्धेतोः अमोघम् सफलम् कृशानुरेतसः हरस्य रेतः वीर्यम् सद्यः तत्कालम् तासाम् कृत्तिकानाम् अभिकलेवरम् कलेवरे शरी శరీర ఇత్యభికలేవరం శరీరమధ్య ఇత్యర్థః సంచచార సంచక్రామ లగ్నమితి యావత్ అత్ర తృతీయాయోగాభావాత్ సమః పరితోపి చరతేన అత్ర తృతీయాయోగాభావాత్ సమః పరతోపి చరతేః నాత్మనేపదం సమస్తృతీయాయుక్తాత్ ఇతి సౌత్రనియమాత్
రౌద్రం సుదుర్ధరం ధామ దధానా దహనాత్మకం పరితాపమవాపుస్తాః మగ్నా ఇవ విషాంబుధౌ
రౌద్రమితి దహనాత్మకం అగ్నిరూపం అత ఏవ సుతరాం దుర్ధరం దుఃఖేన దర్తుం శక్యం రౌద్రం శైవం ధామ తేజః దధానాః తాః కృత్తికాః విషాంబుధౌ మగ్నా ఇవేత్యుత్ప్రేక్ష పరితాపం అవాపుః విషాంబుధిమగ్నత్వే యాదృశః పరితాపః భవతి తాదృశః రౌద్రతేజోధారణే జాత ఇతి భావః
అక్షమాద్దుర్వహం వోఢుం అంబునో బహిరాతురాః అగ్నిం జ్వలంతమంతస్తాః దధానా ఇవ నిర్యయుః
అక్షమా ఇతి దుర్వహం దుర్ధరం తద్ధామ వోఢుం అక్షమాః అత ఏవ ఆతురాః వ్యాకులాః తాః కృత్తికాః అంతః మధ్యే జ్వలంతం అగ్నిమివ దధానాః సత్యః అంబునః జలాత్ బహిః నిర్యయుః నిర్జగ్మురిత్యర్థః అత్ర ధామని అగ్నిత్వేనో అత్ర ధామని అగ్నిత్వేన ఉత్ప్రేక్షణాత్ ఉత్ప్రేక్ష
అమోఘం శాంభవం బీజం సద్యో నద్యోజ్జితం మహత్ తాసామభ్యుదరం దీప్తం స్థితం గర్భత్వమాగమత్
అమోఘమితి నద్యాః గంగాయాః సద్యః ఉజ్జితం అత ఏవ తాసాం కృత్తికానాం అభ్యుదరం దీప్తం సత్ స్థితం అమోఘం సఫలం మహత్ శాంభవం బీజం గర్భత్వం ఆగమత్ గర్భీభూతమిత్యర్థః
సుజ్ఞా విజ్ఞాయతా గర్భభూతం తద్వోఢుమక్షమాః విషాదమదధుః సద్యః గాఢం భర్తృభియాహ్రియా
సుజ్ఞా ఇతి సుజ్ఞాః చతురాః అత ఏవ గర్భభూతం తద్వీర్యం విజ్ఞాయాపి వోఢుం అక్షమాః అసమర్థాః తస్య అతిశయ ప్రజ్వలితత్వాదితి భావః తాః కృత్తికాః భర్తుః భియా భయేన యది నధారిష్యామః తదా అనుచితం నో చేత్ శరీరదాహ ఇతి భయేనేత్యర్థః హ్రియా లజ్జయా ఏవం విధాః ఇమాః యాభిః భర్తృవీర్యం అపి నధృతమితి లోకప్రవాదజన్మనయేత్యర్థః సద్యః గాఢం విషాదం ఖేదం అదధుః ధృతవత్యః
తతః శరవణే సార్ధం భయేన వ్రీడయా చ తాః తద్గర్భజాతముత్సృజ్య स्वान् गृहान् अभिनिर्ययुः
तत इति ततः अनन्तरं ताः कृत्तिकाः तद्गर्भजातं गर्भसामान्यं जातिर्जातं च सामान्यं इत्यमरः भयेन व्रीडया च सार्धं सह शरवणे प्रनिरन्तःशरेक्षु इत्यादिना शरशब्दात् परवननकारस्य णत्वम् शरस्तुते जने बाणे इति मेदिनि उत्सृज्य परित्यज्य स्वान् गृहान् अभिनिर्ययुः गतवत्यः गृहाः पुंसि च भूम्येव इत्यमरः
ताभिस्तत्रामृतकरकला कोमलं भासमानम् तद्विक्षिप्तं क्षणमभिनभो गर्भमभ्युज्जिहानैः स्वैस्तेजोभिर्दिनपतिशतस्पर्धमानैरमानैः वक्त्रैः षड्भिस्मरहरगुरुस्पर्धयेवाजनीव
ताभिरिति ताभिः कृत्तिकाभिः तत्र शरवणे विक्षिप्तं त्यक्तं तथा अमृतकरकलावत् चन्द्रकलेव कोमलं मृदु यथा तथा क्षणं भासमानं तद्गर्भजातं कर्तृ अभिनभोगर्भं नभोगर्भे आकाशमध्ये इत्यभिमनु इत्यभिनभोगर्भं गर्भो भ्रूणेऽर्भके कुक्षौ इति मेदिनि अभ्युज्जिहानैः अभ्युज्जिहते सम्मुखम् उदयन्ते यानि तैः ओहाङ् गतौ इत्यतः शानच् तथा दिनपतिशतं सूर्यशतं स्पर्धन्ते तानि तैः ततोऽपि अधिकैरित्यर्थः तथा अमानैः असङ्ख्यैः स्वैः तेजोभिः तथा षड्भिः वक्त्रैश्च युक्तं स्मरहरगुरोः ब्रह्मणः स्पर्धया ईर्ष्यया इव तव चत्वारि मम षडित्यतः त्वत्त्वः अहम् अधिकोऽस्मीत्येवम्भूत वाग्वादावसरफलकया इत्यर्थः अजनि परिप्राप्तमभूदित्यर्थः दीपजन इत्यादिना श्लेः क्षिण् जनीवध्योश्च इति वृद्धिनिषेधः अत्र तेजसां षण्णां वक्त्राणाञ्च उत्पादने ब्रह्मस्पर्धायाः अहेतुत्वेऽपि तद्धेतुत्वेन कल्पनात् हेतूत्प्रेक्षालङ्कारः मन्दाक्रान्ता वृत्तम् मन्दाक्रान्ता जलधिषडगैर्भौनतौ ताद्गुरूचेत् इति लक्षणात् इति श्रीपर्वणीकरोपनामक श्रीलक्ष्मणभट्टात्मजसतीगर्भसम्भव श्रीसीतारामकविविरचितया सञ्जीवनीसमाख्यया व्याख्यया समेतः श्रीकालिदासकृतौ कुमारसम्भवे महाकाव्ये कुमारोत्पत्तिर्नाम दशमः सर्गः।